इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्याः वार्ताः। लोकसभा निर्वाचनस्य षष्ठम चरणीय मतदानाय प्रचाराभियानं सम्प्रति समाप्तम्। मतदानञ्च शनिवासरे भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना कलकत्ता उच्चन्यायालयस्य अन्यवञ्चित वर्गीय प्रमाणपत्राणां निरसनादेशानन्तरं पश्चिमबंगस्य तृणमूल कांग्रेसस्य तुष्टीकरण राजनीतेः आलोचना कृता। भारतदेशस्य निर्यातः वरिवर्ध्य सर्वोच्चस्तरं सम्प्राप्तोऽस्ति। मई मासे वृत्त्यवसराः 18 वर्षाणां सर्वोन्नतस्तरे सन्ति। भगवतः गौतमबुद्धस्य जयन्ती पर्व बुद्धपूर्णिमा आसंसारं सश्रद्धं प्रपरिपाल्यते। पीवी सिंधु अश्मिताचालिह च मलेशिया मास्टर्स बैडमिंटन चैंपियनशिप इत्यस्यां प्रतिस्पर्धायां प्रागुपान्त्यचक्रे प्रविष्टवत्यौ। अपि च सचिन साजिरावेन जापानदेशे विश्व पैरा एथलेटिक्स चैंपियनशिप इत्यस्मिन् खेलसम्मर्दे सभार कन्दुक प्रक्षेपण स्पर्धायां स्वर्णपदकं विजितम्। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य षष्ठमचरणाय प्रचाराभियानम् अद्य समाप्तिं याति। चरणेऽस्मिन् 8 राज्याणां केन्द्रशासित प्रदेशानां च 58 लोकसभाक्षेत्राणि समाहितानि सन्ति, यत्र परश्वः शनिवासरे मतदानं भविष्यति। ध्यातव्यमस्ति यत् अस्मिन् चरणे बिहारस्य 8, हरियाणायाः सर्वाणि 10, जम्मूकश्मीरस्य 1, झारखण्डस्य 4, देहल्याः सर्वाणि 7, ओडिशायाः 6, उत्तरप्रदेशस्य 14, पश्चिमबंगालस्य 8 आसन्दानि सम्मिलितानि सन्ति, यत्र 89.8% जनाः प्रत्याशीभूताः सन्ति। मतदानाचरणं च प्रातः 7 वादनतः सायं 6 वादनपर्यन्तं कारयिष्यति। दिल्ल्याः सकलेभ्यः 7 लोकसभासनेभ्यः नैर्वाचनिक प्रचारस्य अद्य अन्तिमं दिनमस्ति। राजनीतिकदलैः राष्ट्रिय राजधान्यां मार्गीय प्रदर्शनानि जनसभाश्च क्रियन्ते। मतदातृं निजसमर्थने आक्रष्टुं राजनीतिकदलानि सर्वसम्भव प्रयासान् विदधति। ध्यातव्यं वर्तते यत् दिल्ल्यां षष्ठम चरणीय मतदानं शनिवासरे एव समनुष्ठीयते। अद्य वरिष्ठो भाजपादलीय नेता केन्द्रीय मन्त्री च राजनाथ सिंहः पश्चिम दिल्ली लोकसभा क्षेत्रान्तर्गतं द्वारकायां एकं जनसमूहं सम्बोधितवान्। स्वीयोद्बोधने श्री सिंहः अवोचत् यत् भारतं निश्चप्रचं रामराज्योदयं द्रक्ष्यति। एतस्य निरोधने जगति कापि शक्तिः समर्था नास्ति। अपरत्र कांग्रेसदलस्य वरिष्ठनेता राहुलगान्धी दिल्ल्याः पूर्वोत्तरीय लोकसभाक्षेत्रे दिलशाद गार्डनस्थले जनसमागमं समबोधयत्। समागममिदं सम्बोधयन् श्रीगान्धी निर्धन असमानता सदृशं विषयं निध्याय भाजपेति दलम् आरोपितवान्। ओडिशाराज्येऽपि समेभ्यः 6 लोकसभासनेभ्यः 42 विधानसभाक्षेत्रेभ्यश्च निर्वाचनिक प्रचाराभियानं पूर्णगत्या प्रवर्तते। मतदानं संबलपुर क्योंझार ढेकनाल पुरी भुवनेश्वर कटक संसदीय क्षेत्रेषु विधास्यते। प्रधानमन्त्री भाजपेति दलस्य वरिष्ठनेता श्रीनरेन्द्रमोदी उक्तवान् यत् 14-2000-तमवर्षस्य सामान्य निर्वाचने प्रमुखः विषयः भ्रष्टाचारः आसीत्। 19-2000-तमवर्षीय निर्वाचनप्रसंगे लाभार्थिनः केन्द्रबिन्दुभूताः आसन्। साम्प्रतिके निर्वाचने च प्रमुखचर्चायाः विषयो वर्तते विकसितभारतमिति। एकस्मै आंग्लदैनिकपत्राय प्रदत्ते साक्षात्कारे श्रीमोदी अवोचत् यत् समग्रस्य राष्ट्रस्य जनाः जानन्ति यत् निर्वाचनमिदं महत्वपूर्णमस्तीति, यतोहि द्रुततया भारतस्य विकासः एव राष्ट्रस्य अपेक्षा वर्तते। श्रीमोदी उक्तवान् यत् अस्य सामान्य लोकसभा निर्वाचनस्य कुञ्जीभूताः मतदातारः ते सन्ति ये भ्रष्टाचारस्य विरोधिनः सर्वकारीय योजनानां लाभार्थिनश्च सन्ति। श्रीमोदिना भणितं यत् भारतदेशः विशेषतया कोविड महामार्यानन्तरं तीव्रगत्या गतिवत्सु देशेषु अन्यतमो वर्तते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्रिणा भारतीय जनता पार्टीति दलस्य वरिष्ठनेत्रा नरेन्द्रमोदिना तुष्टीकरणस्य राजनीत्यै पश्चिमबंगाले ममता बनर्जी इत्यस्याः नेतृत्वधायिनः तृणमूल कांग्रेस सर्वकारस्य आलोचना कृता। देहल्याः ह्यस्तनीयायां नैर्वाचनिक सभायां श्रीमोदिना कलकत्ता उच्चन्यायालयद्वारा दशोत्तर द्विसहस्रतम वर्षानन्तरं राज्ये प्रदत्तानि अन्य वंचित वर्गस्य प्रमाणपत्राणि निरस्तीक्रियन्ते इति विषयम् अवलम्ब्य बंग सर्वकारस्य आलोचना विहिता। भारतीय जनता पार्टीति दलनेत्री केन्द्रीय मन्त्री च स्मृति ईरानी कथितवती यत् आपदलस्य नेतुः मनीष सिसोदिया इत्यस्य मुक्तियाचिका सम्बन्धे दिल्ली उच्चन्यायालयस्य प्रदत्त वक्तव्येन स्पष्टं भवति यत् अस्य दलस्य अन्य नेतारः अपि धनेन लाभान्विताः भविष्यन्ति। अद्य नवदिल्ल्यां वार्ताहरान् असौ सम्भाषितवती यत् न्यायालयस्य टिप्पण्यः भ्रष्टाचारं संकेतयन्ति। अनया अग्रे प्रोक्तं यत् न्यायालयेन आमानितं यत् सिसोदियाः शतकोटिरूप्यकाणां विहितभ्रष्टाचाराय सर्वकारीयतन्त्रस्य दुरूपयोगं कृतवान्। मुक्तियाचिकायाः अनन्तरं असौ साक्षिभ्यः संकटोत्पन्नं कर्तुं शक्नोति। एषा जनान् आग्रहमपि विहितवती यत् ते मनीष सिसोदिया आपदल इत्येतयोः कृतभ्रष्टाचारे न्यायालयेन प्रदत्त टिप्पण्यां सूक्ष्मतया अध्ययनं कुर्युः। सुश्री ईरानी आरोपितवती यत् आपदलं भ्रष्टाचारस्य शमनाय सत्तारूढं जातमासीत् परञ्च साम्प्रतं स्वयमेव भ्रष्टाचारे संलिप्तमस्ति। अद्य बुद्धपूर्णिमा अस्ति। गौतमबुद्धस्य जन्म परिनिर्वाणश्च अस्मिन्नेव दिवसे बभूवेति मन्यते। तस्मै बोधगयायाः महाबोधि वृक्षस्य अधः ज्ञानावाप्तिः बुद्धपूर्णिमायाः दिवसैव समजायत। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उपराष्ट्रपतिना जगदीप धनखडेन च अवसरेऽस्मिन् देशवासिभ्यः स्वीय शुभकामनाः प्रदत्ताः। राष्ट्रपतिना प्रोक्तं यत् भगवता बुद्धेन सत्य अहिंसया सह सर्वान् प्राणिनः प्रति प्रेम्णः सन्देशो दत्तः। तया प्रोक्तं यत् भगवतः बुद्धस्य सहिष्णुतायाः आत्मस्मरणस्य सदाचारणस्य च शिक्षा सर्वेभ्यः प्रेरणायाः विषयो अस्ति। दिवसोऽयम् आसंसारं सश्रद्धं प्रपाल्यते। देशस्य वरिष्ठनेतृभिश्च जनेभ्यः बुद्धपूर्णिमायाः शुभकामनाः सन्दत्ताः सन्ति। राष्ट्रे गताष्टदशवर्षाणां तुलनायाम् अस्य वर्षस्य मई मासे कीर्तिमत् संस्थापनपूर्वकं वृद्धिः समुत्तङ्कितम् अस्ति। HSBC फ्लैश इति क्रयप्रबन्धक सूचकांक इत्यनुसारि भारतं दशोत्तर द्विसहस्रतमवर्षस्य जुलाई मासानन्तरं निजक्षेत्रीय उत्पादने तृतीयः सर्वातिवृद्धियुतः देशः जातोऽस्ति। उत्पादन विक्रयण परिप्रेक्ष्ये विनिर्माण क्षेत्रं सातत्येन प्रगतिं याति। भारतस्य पीवी सिन्धुः अश्मिता चालिहा च मलेशिया मास्टर्स बैडमिंटन प्रतिस्पर्धायाः प्रागुपान्त्यचक्रे प्रविष्टवत्यौ। पीवी सिन्धुः महिलेकल वर्गस्य प्रागुपान्त्यचक्रे दक्षिण कोरियायाः यू जिन सिम इत्येताम् अपि च अश्मिता अमरीकादेशस्य बिवेन झांग इत्येताम् पराजितवती। इति वार्ताः।